ओम नमो भगवते वासुदेवाय। प्रोवाच भगवन् परमेशाना भक्तिरव्यभिचारिणी प्रारब्धं भुज्यमानस्य कथं भवते प्रभो। श्री प्रोवाच प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा समुक्तः ससुखी लोके कर्मणानोपलिप्यते। महापापादि पापानि गीता ध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनी जलमम्बुवत्। गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै। सर्वे देवाश्चर्यो योगिनः पन्नगाश्च ये गोपाला गोपिका वापि नारदोद्धवपार्षदैः सहायो जायते शीघ्रं यत्र गीता प्रवर्तते। यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी निवसामि सदैव हि। गीताश्रयं तिष्ठामि गीता मे चोत्तमं गृहं गीताज्ञानमुपाश्रित्य त्रिलोकान् पालयाम्यहं। गीता मे परमा विद्या ब्रह्मरूपा न संशया अर्धं मात्राक्षरा नित्या स्वानिर्वाच्य पदात्मिका। चिदानन्देन कृष्णेन प्रोक्ता सुमुखदोऽर्जुनं भीतत्रयी परानन्दा दत्त्वार्थज्ञानसंयुता। योष्टादश जपो नित्यं नो नरो निश्चलमानसः ज्ञानसिद्धिं स लभते ततो याति परां पदम्। पाठे समग्रे सम्पूर्णे ततोऽर्थं पाठमाचरेत् तदा गोदानजं पुण्यं लभते नात्र संशयः। त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् षडंशं जपमानस्तु सोमयागफलं लभेत्। एकाध्यायं द्यो नित्यं पठति भक्तिसंयुता रुद्रलोकमवाप्नोति गणो भूत्वापसेच्चिरम्। अध्यायं शुकपादं वा नित्यं यः पठति नरा स याति नरतां यावन्मन्वन्तरं वसुन्धरे। गीताया श्लोकदशकं सप्त पञ्चचतुष्टयं द्वौ त्रीणेकं तदर्थं वा श्लोकानां यः पठेन्नरा चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवं गीतापाठसमायुक्तो मृतो मानुरतां व्रजेत्। गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुक्तमां गीतेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत्। गीतार्थश्रवणासक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सह मोदते। गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः जीवन्मुक्तस्य विज्ञेयो देहान्ते परमं पदम्। गीतामाश्रित्य भावो भूभुजो जनकादयः निर्धूतकल्मषालोके गीता यातः परं पदम्। गीतायाः पठनं कृत्वा माहात्म्यं न्यायः पठेत् तथा पाठो भवेत् तस्य श्रम एव क्षुधार्थः। एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात्। सुत उवाच माहात्म्यमेतद्गीताया मया प्रोक्तं सनातनम् गीतान्तेज पठेद्यस्तु यदुक्तं तत्फलं भवेत्। इति श्रीवराहपुराणे श्रीगीतामात्यं सम्पूर्णं। हरि ओं तत्सत् ब्रह्मार्पणमस्तु।